ओम अज्ञान निरांधस्य ज्ञानांजन शलाकया चक्षुरुन्मीलितं येन तस्मै श्री गुरवे नमः श्रेष्ठं मयोऽपि शचीपुत्रमत्तस्वरूपं रूपं तस्याग्रजं रूपुरीं माधुरीं गोष्ठवाचि राधाकुन्दं गिरिवरमहो राधिका माधवासां प्राप्त यश्य प्रसिद्धकृपया श्रीगुरु नतोऽस्मि वंशाकल्पतरुभ्यश्च कृपा सिन्धुभ्यैव च पतितानां पावनेभ्यो वैष्णवेभ्यो नमो महावदन्नाय कृष्णप्रेमप्रदायते कृष्णाय कृष्णचैतन्यनाम्ने गौरतिशे दिव्यद्वृन्दारण्यकल्पद्युमाध श्रीमद्रत्नागार सिंहासनस्थो श्री श्री राधा श्री रघुगोविंद देव प्रेष्ठादि विश्वमानो स्मराम आददानस्ति नं दन्तैरिदं याचे पुनः पुनः श्रीमद्रूपपदां भोज सूरिधुरिश्यां जम्भजन् श्रीचैतन्यमनोभीष्टं स्थापितं येन भूतले स्वयं रूपकदा मध्यं ददाति सपदान्तिकं मूकं करोति वाचालं पङ्गुं लङ्घयति गिरिं यत्कृपातमहं वन्दे श्रीगुरुं दीनदारुणम्।